एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। निर्वाचनायोगेन परश्वः फाल्गुनस्य पञ्चविंशे दिवसे सम्पत्स्यमानाय राष्ट्रपतेः निर्वाचनाय गतरात्रौ द्वादशवादनतः प्रचार प्रसारयोः निषेधनस्य अवधिः निर्धारितो स्थिति ज्ञापितम् वर्तते। आयोगेन गत मध्यरात्रितः फाल्गुनस्य पञ्चविंशे दिवसे मतदान केन्द्रस्य अपिधानम् यावत् प्रचार प्रसारयोः निषेधनस्य अवधि तिष्ठतीति ज्ञापितमस्ति। निर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये पारदर्शिनी भयमुक्ते च वातावरणे सम्पादयितुम् मतदान दिवसस्य पूर्वकालस्य अष्टचत्वारिंशतो घण्टाभ्यः मतदान दिवसे मतदान केन्द्रस्य अपिधानम् यावत् प्रचार प्रसारयोः निषेधनस्य अवधेः क्रियान्वयनम् एतद् विक्रम वर्षीयायाम् निर्वाचनाचार संहितायाम् व्यवस्थितम् वर्तते। प्रचार प्रसारयोः निषेधनावधौ निर्वाचनस्य प्रचार प्रसाराभ्यां सह कथम् विधान्यपि विमर्शनान्तर क्रिया सभा सम्मेलन कार्यशाला गोष्ठी प्रवृत्ति कार्याणि विधातुम् न शक्यन्ते इति वैधानिकी व्यवस्था वर्तते। राष्ट्रस्य सर्वोच्चस्य गरिममयस्य च पदस्य राष्ट्रपतेर निर्वाचने निर्वाचनविधिम् आचार संहिताम् च परिपाल्य निर्वाचनस्य स्वच्छताम् मर्यादाम् च संस्थापयितुम् आयोगेन सम्बद्धाः सर्वे अनुरुद्धाः सन्ति। पारस्परिकैकता सद्भाव सौहृद भातृत्व भावनाम् अभिवर्धकम् होलिका पर्व अद्य तराई मधेस क्षेत्रे विशेषोल्लासेन उत्साहेन च समा योज्यमानम् वर्तते। एतदवसरे अविरादि चूर्णम् रंगमिश्रितम् जलम् च परस्परम् प्रक्षिप्य सहर्षम् पर्वेदम् समायोज्यते। पर्वेदम् होलिका दहनस्य पौराणिक वृत्तेन सह संयोजितम् अस्ति। अत्रान्तरे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराँती होलिका पर्वणो माध्यमेन सांस्कृतिकी भावनात्मिका च एकता सबला सुदृढा च भवतीति विश्वासम् व्यनक्ति। ह्य काष्ठमण्डपे आयोजिते होलिकोत्सव कार्यक्रमे मन्त्री किराँती होलिका पर्वणा भावनात्मैकताम् पारस्परिकम् सद्भावम् भातृत्वम् च संस्थापयितुम् सायम् मिलतीति अवोचत। पर्यटन मन्त्री किराँती अकथयत् देशस्य पर्यटन क्षेत्रस्य प्रवर्धनाय संस्कृतेः प्रवर्धनम् आवश्यकम् वर्तते। असौ अगदत् संस्कृत्योः समायोजनेनैव सम्प्रति पर्यटनम् वर्धयितुम् एतद् राष्ट्रस्य समृद्ध्या सह योजयितुम् च शक्यते। धनुषा जनपदस्य जनकपुर धामनि ह्यो दिवसद्वयव्यापी होरी महोत्सव प्रारब्धो वर्तते। जनकपुर धामवर्तिन्या मिथिला नाट्यकला परिषद आयोजनायां प्रारब्धस्य एतस्य होरी महोत्सवस्य प्रथमे दिवसे ह्य जोगिरा गीत प्रतियोगिता सम्पन्ना। अष्टादश होरैया समूहानां सहभागितायां सम्पन्ने होरी महोत्सवे विभिन्नेभ्यो जनपदेभ्यो होरैया समूह समागता आसन्। होरी महोत्सवे अद्य महामूर्ख सम्मेलनम् आयोज्यते इति आयोजकेन ज्ञापितम् वर्तते। महामूर्खस्य उपाधि प्राप्तये विभिन्नाः व्यक्तयः स्पर्धायां सन्तीति मिथिला नाट्यकला परिषदः अध्यक्ष परमेश झा ज्ञापयति। परिषदः महासचिव शैलेन्द्र मल्लिकः अद्य विशिष्ट शैल्या कार्यक्रमस्य उद्घाटनम् परिषदः हास्य प्रधाना व्यङ्ग्यपूर्णा च नाट्य प्रस्तुतिः होरी गायनम् हास्य कवि गोष्ठी सम्मानः मूर्ख महामूर्खयो उपाधि वितरणम् मूर्ख महामूर्खयो सम्मान प्रेमोपहार वितरणम् च विधीयन्ते इत्यभाषत। एकषष्ट्युत्तर द्विसहस्रतम विक्रम वर्षे जनकपुर धामनि महामूर्ख सम्मेलनम् प्रारब्धम् आसीत्। फाल्गु पूर्णिमायाः होलिका पर्वणश्च अवसरे ह्यो नुवाकोट जनपदस्य विदुरस्थाने लक्ष्मीनारायणयो रथयात्रा प्रदर्शिता। परापूर्वकालतः फाल्गु पूर्णिमायाः अवसरे प्रदर्श्यमाना लक्ष्मीनारायणस्य रथयात्रेयम् ऐषम वर्षेऽपि निरन्तरम् निष्कासिता वर्तते। रथयात्रेयम् प्रतिवर्षम् महिलानाम् अग्रसरतायाम् प्रदर्श्यते, तत्र पुरूषाणामपि सहयोगो भवति। विदुरवर्तिनी लोकतान्त्रिक चौतारो स्थाने अवस्थितात् लक्ष्मीनारायणयो मन्दिरात् प्रदर्शितायाः रथयात्रायाः तत्रत्यान् विभिन्नान् चतुष्पथ वसति समुदायान् परिक्रम्य पुनः तस्मिन्नेव मन्दिरे विसर्जनम् विधीयते विद्यते तीर्थयात्रायाम सहभागी स्थानीयवासी सुशील रिजाल अभूचत। रिजालस्य अनुसारेण रथयात्राया परिक्रमायाम वीतायाम सत्यम लोकसमुदाय हितम भवति रोग दुःख कष्टादिनी च विनश्यन्ति इति जनविश्वासो वर्तते। रथयात्रायाम सर्वेषाम जाति वर्ग समुदाय धर्मावलम्बीनाम सहभागितया पारस्परिक सद्भावम धार्मिक सहिष्णुताम च संस्थापयितुम सहायम प्राप्यमाणम अस्ति रथयात्रायाम सहभागी शिक्षक नवराज पाण्डे अवदत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन कथयति विकासस्य मूलमेव शिक्षास्ति। झापा जनपदस्य हल्दीबारी ग्रामपालिकया पूर्वेद्यो आयोजिते निकटस्थ दृश्याङ्कनोपकरण प्रणाल्या उद्घाटन कार्यक्रमे क्रीडक सम्मान कार्यक्रमे च नेता लिङ्गदेन शिक्षा क्षेत्रस्य विकासेन विना देशस्य विकास सम्भवो नास्ति इति विचारं व्यक्तवान्। सर्वेषां विकासानां मूलं शिक्षैवास्तित्यतः शिक्षा क्षेत्रे सुधार आवश्यको स्थिति चर्चयन् अध्यक्षो लिङ्गदेन अगदत् प्राविधिक जीवनोपयोगिनी वृत्त्युपार्जन सज्जिका च शिक्षा वर्तमाना आवश्यकता वर्तते। नेता अध्यक्ष लिङ्गदेन अद्यतन सन्ततेः भविष्यं शिक्षया निर्धारयिष्यते इत्यतः शिक्षा क्षेत्रस्य समुचित विकासो विधेय इत्यत्र बलं प्रादात्। ग्रामपालिकायाः अन्तर्गतानां विद्यालयानां शैक्षिक गुणस्तरस्य सुधाराय उपकरण प्रणालीयं निर्माय सञ्चालने आनीता स्थिति हल्दीबारी ग्रामपालिकायाः अध्यक्ष रविन्द्र लिङ्गदेन अज्ञापयत्। अतपरं निकटस्थ दृश्याङ्कनोपकरण प्रणाल्याः माध्यमेन अभिभावकैः जनप्रतिनिधिभिः सम्बद्ध पक्षैश्च अनलाइन प्रविधिर्माध्यमेनैव विद्यालयानाम् अनुगमनं कर्तुं शक्यते। छदितः निपत्य मृतस्य नेकपा एकीकृत समाजवादी दलस्य नेतुः सरोज उपाध्यायस्य ह्य पाशुपतार्य घाट क्षेत्रे अन्त्येष्टिः विहिता। गत शनिश्चरवासरे शङ्खमूलस्थितस्य एकस्य चायपान गृहस्य छदितः निपत्य उपाध्याय दिवंगतः आसीत्। उपाध्याय नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य अनुजो वर्तते। उपाध्यायस्य पार्थिव शरीरं श्रद्धाञ्जलये ह्य दिवा एकवादनात् त्रिवादनं यावत् आलोकनगरवर्तिनी दलस्य कार्यालय स्थापितम् आसीत्। ह्यैव पाशुपतार्य घाट स्थाने अन्त्येष्टिः वितेति अध्यक्षस्य नेपालस्य स्वकीय सचिवः मोहन गौतमः अज्ञापयत्। उपाध्यायस्य पत्नी पुत्रद्वयं च वर्तन्ते। कपिलवस्तु जनपदस्य इच्छुक कृषकाणाम् आन्दोलनस्य सप्तवर्षाणि व्यतीतानि सन्ति। अस्मिन् अवधौ कृषकै भूयो भूय ज्ञापन पत्रार्पणस्य आन्दोलनस्य च कार्यक्रमः विहिताः वर्तन्ते। कृषकैः भूयो भूय आश्वासनं प्राप्तं सदपि सर्वकारेण याचना न प्रपूरितेति वेदना प्रकटिता वर्तते। इच्छुक कृषकैः प्राप्तव्यं वित्तं न प्राप्तमिति निगद्य ह्य चन्द्रौटा स्थानीय प्रशासनस्य माध्यमेन सर्वकाराय ज्ञापन पत्रम् अर्पितं वर्तते। एक सप्तति द्वासप्तत्युत्तर द्विसहस्रतमे विक्रम वर्षे प्रति क्विंटल मितस्य इक्षोः सर्वकारेण निर्धारितं मूल्यमपि इदानीं यावत् न प्राप्तम् इत्युक्त्वा च इक्षु कृषकैः इक्षो मूल्यम् अभियाचितमस्ति। अस्मिन् वर्षे शीतकालिक वृष्टे अभावात् मध्यप्रदेशस्य जनपदेषु शुष्कता सृष्टा भूमिगत जलस्य स्रोतांशि च शुष्कायमानानि सन्ति। बारा पर्सा रौतड सर्लाई प्रभृति जनपदेषु शुष्कतायाः कारणेन अग्निदाहस्य बने दावानलस्य च संकटः वर्धमानो स्थिति स्थानीयवासिनो वदन्ति। पर्सा राष्ट्रिय निकुञ्ज राष्ट्रिय वनक्षेत्रे च दुरापन्नस्य दावानलस्य वनस्य पार्श्ववर्ती वसतौ प्रसरणं सम्भवतीति संसूच्य स्थानीय प्रशासनेन वनक्षेत्रस्य पार्श्वभागेषु निवसन्तो जना सावधानताम् अवलम्बितुम् अनुरुद्धाः सन्ति। आईसीसी विश्व क्रिकेट क्रीडाया द्वितीय स्तरस्य अन्तर्गतायां त्रिकोणात्मकैक दिवसीय श्रृंखलायां नेपालेन संयुक्त अरब इमिरेट्स देश पराजितो वर्तते। दुवै अन्तर्राष्ट्रिय क्रिकेट क्रीडा रंगशालायां ह्य क्रीडितायां क्रिकेट क्रीडायां नेपालेन यूएई देश द्वाचत्वारिंशता धावनांकैः पराजितो वर्तते। नेपालेन यूएई देशाय विजय प्राप्तये त्रिंशदधिकद्विशतस्य धावनांकानां लक्ष्यं प्रदत्तम् आसीत्। प्रत्युत्तरे यूएई देशेन पञ्चचत्वारिंशत् ओवरांकेषु सर्वान् क्रीडकान् हापित्वा सप्ताशीत्यधिकशतं धावनांकाः एव अर्जिताः आसन्।